Now please hear chapter 14 from Bhagavad Gita, the three modes of material nature. Shri Bhagavan Vacha Param Bhuya Pravakshyami Jnananam Jnanamuttamam Yajnatva Munayah Sarve Param Siddhimito Gata. Im idam jnanam upashritya mama sadharmyam agata sargepi nopajayante pralaye na vyathanti cha mama yonir Mahat Brahma Tasmin Garbham Dadami Aham Sambhava Sarva Bhutanam Tato Bhavati Bharata Sarva Yonishu Kaunteya Murtaya Sambhavanti Ya Tasam Brahma Mahadiyonir Aham Bij Radhapita Satvam Rajas Tamaiti Gunaha Prakriti Sambhava Nibadnanti Mahabaho Dehe Dehinam Avyayam Tatra Satvam Nirmalatvat Prakashakam Anamayam Sukhasangena Badnati Jnana Sangena Chanaka Rajo Ragatmakam Vidhi Tushna Sangha Samud Bhavam Tanni Badnati Kaunteya Karma Sangena Dehinam Tamastu adnya najam vidhi Mohanam sarvadeyinam Pramadalasya nidrabhes Tamtan nibadnati bharata Satvam sukhe sanjayati Rajakarmani Bharata Jnanam avritya tutamaha Pramade sanjayatyuta Rajastamascha vibhuya Satvam bhavati Bharata Rajah satvam tamaschaiva Tamaha satvam rajastatha Sarva dvareshu dehesmin prakash upajayate jnanam yada tada vidya vivruddham satvam iti uta lobha pravrittirarambha karmanam shamah Spruha Rajasyetani Jayante Vivruddhe Bharatar Shava Aprakasho Apravritti Cha Pramado
मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन यदा सत्वे प्रवृद्धे यदा सत्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते रजसि प्रलयं कत्वा कर्मसङ्गीषु जायते तथा प्रलीनस्तमसि मूढयोनिषु जायते कर्मणः सुकृतस्याहो सात्विकं निर्मलं फलम् रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् सत्वात् संजायते ज्ञानं रजसो लोप एव च प्रमादमोहौ तमसो भवतो अज्ञानम् एव च ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसा जघन्यगुणविवृत्तिस्ता अधो गच्छन्ति तामसा नान्यं गुणेभ्यः कर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मत्भावं सोऽधिगच्छति गुणानेतान् तीत्यत्रीन् देहि देह समुद्भवान् जन्म मृत्यु जरा दुःखैर् विमुक्तो अमृतम् अश्नुते अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणान् एतानतितो भवति प्रभो किमाचारः कथं चैतांस्त्रीन् गुणानति वर्तते श्रीभगवान् उवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति उदासीनवदासीनो गुणैर्यो न विचाल्यते गुणावर्तन्त इति एव योऽवतिष्ठति नेङ्गते समदुःखसुखः स्वस्थः समलुष्टाश्म काञ्चनः तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्म संस्तुतिः मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः सर्वारम्भ परित्यागी गुणातीतः सौच्यते मां च यो अव्यभिचारेण भक्तियोगेन सेवते सगुणान् समतीतेतान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाम् अमृत्यस्य व्ययस्य च शाश्वतस्य च धर्मस्य सुखसैकान्तिकस्य च Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, 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 Hare Hare.
Sri Krishna Arpanamastu.